श्री साईश्वराय नमः हरिः ॐ त्वमग्ने रुद्रो असुरो महो दिवस्त्वगुं शर्धो मारुतं वृक्षयीशिषे त्वं वातैररुणैर्याशिशङ्घयस्त्वं पूषा विधतः पासि नुत्मना आवो राजानमध्वरस्य रुद्रगुं होतारगुं सत्ययजगुं रोदस्यो अग्निं पुरातन यत्नो रचिताद्धिरण्यरूपमनसे कृणुध्वम् अग्निर्होता निषसादाय जीयानुपस्थे मातुः सुरभावुलोके युवाकविः पुरुनिष्टः ऋतवा धर्ता कृष्णीना मुतमज्जयिद्धः साध्वीमकर्देववीतिन्नो अद्य यज्ञस्य जिह्वामविदामगुह्याम् स आयुरागा आसुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य अक्रन्ददग्निस्तनयन्निभज्जौक्षाम रेरिह द्विरुध समज्ञन् सद्यो जज्ञानो विहिमिद्धो अख्यदारोदसि भानुना भात्यन्तः त्वेव सूनि पुर्वणीकहोतर्दोषा वस्तोरेरिरे यज्ञियासः क्षामेव विश्वा भुवनानि यस्मिन् सगुं सौभगानि दधिरे पावके तुभ्यं ता अङ्गिरस्तमविश्वा सुक्षितयः पृथक् अग्ने कामाय येमिरे अस्यामतं काममग्ने तवोत्यस्याम रयिवं रयिव सुवीरम् अस्यामवाजमभिवाजयन्तोश्चाम जुम्नमय राजदन्ते श्रेष्ठं यविष्टभारताग्ने जुमन्तमाभर वसो पुरुःस्पृहगुं रयिं सस्मितानस्तन्यतूरोचनस्ता अजरेभिर्नानदद्भिर्यविष्ठः यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् आयुष्ठे विश्वतो दधदयमग्निर्वरेण्यः पुनस्ते प्राण आयति परा यक्ष्मगुं सुवामिते आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयो निरेधि घृतं पीत्वा मधुचारुगव्यं पितेव पुत्रमभिरक्षतादिमम् तस्मै ते प्रतिहर्यते जातवेदो विचर्षणि अग्ने जनामि सुष्टुतिम् दिवस्परिप्रथमं जज्ञे अग्निरस्मद्वितीयं परिजातवेदाः तृतीयमप्सु नृमणा अज समिन्धानयेनञ्जरते स्वाधीः शुचि पावकवञ्जोऽग्ने बृहद्विरोचसे त्वं घृतेभिराहुतः दृशानो रुक्मवृण्याब्जद्यौ धुर्मक्षमायुः श्रियेरुचानः अग्निरमृतो अभवद्वयोभिः यदेनं जौरजनयत्सुरेताः आयदिशे नृपतिं तेज आन चुच्छिरेतो निषिक्तं जौरभीके अग्ने शर्धमन वज्जम युवानग्गम स्वाधियम जनयत्सूदयच्च सतेजीयसामनसात्मोत उत शिक्ष स्वपत्यस्य शिक्षो अग्नेरायो नृतमस्य प्रभूतौ भूयामते सुष्ठुतयश्च वस्वः अग्ने सहन्तमाभर जुम्नश्च प्रासहारयिम् विश्वायश्चर्षणीरभ्यास वाजेषु सासहत् तमग्ने पृतनासह गुं रजिगुं सह स्व आभर त्वगुं हि सत्यो अद्भुतो दाता वाजस्य गोमतः वुक्षान्नाय वशान्नाय सोम पृष्ठाय वेधसे स्तोमैर्विधेमाग्नये वद्माहि सूनो अस्यद्म सद्वा चक्रे अग्निर्जनुषाज्वान्नम् सत्वन्नवूर्जस नवूर्जन्धारा जेवजेर भृकेक्षे एष्यन्तः अग्न आयुगुंषि पवस आसुवोज्जमिषञ्चनः आरे बाधस्वदुच्छुनाम् अग्ने पवस्व स्वपा अस्मे वच्च सुवीव्यम् दधत्पोषगुं रयिं मयी अग्ने पावकरोचिषा मन्द्रजा देवजिह्वया आदेवान् वक्षियक्षि च स नः पावकदी दिवोऽग्ने देवागुम् इहावहा उपयज्ञगुं हविश्च नः अग्निः शुचिव्रततमः शुचिर्विप्रशुचिः कविः शुचिरोचत आहुतः उदग्ने शुच यस्तव शुक्राभ्राजन्तैरते तव ज्योतिगुं शच्चयः त्वमग्ने रुद्रो असुरो महो दिवः त्वगुं शर्धो मारुतं वृक्षयीशिषे त्वं वातैररुणैर्याशिषङ्गजः त्वं पूषा विधतपाशिनुत्मना देवादेवेषु श्रयध्वं प्रथमा द्वितीयेषु श्रयध्वं द्वितीयास्तृतीयेषु श्रयध्वं तृतीयाश्चतुर्देषु श्रयध्वं चतुर्दा पञ्चमेषु श्रयध्वं पञ्चमाषष्ठेषु श्रयध्वं षष्ठा सप्तमेषु श्रयध्वं सप्तमा अष्टमेषु श्रयध्वं अष्टमा नवमेषु श्रयध्वं नवमा दशमेषु श्रयध्वं दशमा एकादशेषु श्रयध्वं एकादशा द्वादशेषु श्रयध्वं द्वादशास्त्रयोदशेषु श्रयध्वं त्रयोदशाश्चतुर्दशेषु श्रयध्वं चतुर्दशा पञ्चदशेषु श्रयध्वं पञ्चदशा षोडशेषु श्रयध्वं षोडशा सप्तदशेषु श्रयध्वं सप्तदशा अष्टादशेषु श्रयध्वं अष्टादशा एकान्नविगुंसेषु श्रयध्वं एकान्नविगुंशा विगुंसेषु श्रयध्वं विगुंशा एकविगुंसेषु श्रयध्वं एकविगुंशा द्वाविगुंसेषु श्रयध्वं द्वाविगुंशास्त्रयोविगुंसेषु श्रयध्वं त्रयोविगुंशाश्चतुर्विगुंसेषु श्रयध्वं चतुर्विगुंशा पञ्चविगुंसेषु श्रयध्वं पञ्चविगुंशा षड्विगुंसेषु श्रयध्वं षड् द्विगुंशा सप्त विगुंसेषु स्रजध्वम् सप्त विगुंशा अष्ट विगुंसेषु स्रजध्वम् अष्ट विगुंशा एकान्न त्रिगुंसेषु स्रजध्वम् एकान्न त्रिगुंशास्त्रिगुंसेषु स्रजध्वम् त्रिगुंशा एक त्रिगुंसेषु स्रजध्वम् एक त्रिगुंशाद्वा त्रिगुंसेषु स्रजध्वम् द्वात्रिगुंशास्त्रयस्त्रिगुंसेषु स्रजध्वम् देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिगुंशाः उत्तरे भवता उत्तरवर्त्मानवुत्तरसत्त्वानः यत्कामयिदम् जुहोमि तन्मे समुज्झताम् वयग्गश्चामपतयोरयीणाम् भूर्भुवः स्वः स्वाहा ॐ नमो भगवते रुद्राय त्वमग्ने त्वमग्ने शतरुद्रेयमित्यस्त्राय फट् भूर्भुवः सुवरोमिति दिग्बन्धः इति पञ्चमोऽन्यासः अध पञ्चाङ्गगं सकृज्जपेत् सद्यो जातं प्रपज्जामि सज्जो जाताय वै नमो नमः भवे भवे नाति भवे भवस्व माम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नम श्रेष्ठाय नमो रुद्राय नम कालाय नम कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमदनाय नम सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्यो धघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ईशानः सर्वविज्ञानामीश्वर सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो।